आयुर्वेदः इति वृक्षाणां चिकित्सानिमित्तं तत्र वृक्षाणां चिकित्साशास्त्रमस्ति वृक्षायुर्वेदः। एकम् अहं सामान्य उदाहरणम् उक्तवान्, इदानीं रसायनशास्त्रस्य एकं पुस्तकं प्रकाशितवन्तः इण्डियन् ट्रेडिशन् आफ़् केमिस्ट्री अण्ड् केमिकल् टेक्नालजि पब्लिश्ड् बुक् रीसेण्ट्लि। तत् पुस्तकप्रकाशनसमये वि गाट् 66 वर्क्स् आन् रसायनम् आन् केमिस्ट्री पुरातन पुस्तकानि। सो एतद्विषये अहम् अग्रे पुनः वदामि, अस्माकं समीपे लिटरेचर् अस्ति विल् गिव्। सो एतादृशमहाज्ञानभण्डारः अस्ति संस्कृतवाङ्मये, भाषां संस्कृतभाषां न जानाति, तस्मात् कारणात् वयं अस्माकं हेरिटेज् विषये न जानीमः। एवं भाषामुपजीवनेन यदा लेङ्ग्वेज् सर्वेषां भवति तदा वयं सर्वेपि तत् एण्टैर् हेरिटेज् पठामः, तदा तत्र रिवैवल् आगच्छति। अपि च प्राचीनभारतीयजीवन आदर्शाः यत् वेल्यूस् सन्ति तस्य री इण्टर्प्रिटेशन् आवश्यकम्, अद्यतनकालानुगुणं परिवर्तितकालानुगुणं तस्य पुनर्व्याख्यानं करणीयम्। यदा धर्मस्य अथवा सनातनज्ञानस्य यदा री इण्टर्प्रिटेशन् भवति तेन पुनरुत्थानं भवति, रेनेसान्स्, सांस्कृतिक रेनेसान्स् भवति, सांस्कृतिक रेनेसान्स्। यदा संस्कृतिपुनरुत्थानं भवति तदा विश्वकल्याणं भवति। कारणं संस्कृतिपुनरुत्थानं, पुनरुत्थानम् इस् रेनेसान्स्।
रेनेसान्स् इत्युक्ते रिसर्जन्स् रिस्ट्रक्चर् स्वाभिमानस्य पुनरागमनम् अपि
तदपि भवति। विश्वकल्याणं भवति, कारणं विश्वकल्याणाय अपेक्षितविचारः तत्त्वं केवलं संस्कृतवाङ्मये अस्ति, अन्यवाङ्मये न। बिकास् संस्कृते यत् तत्त्वम् उक्तमस्ति तदेव आल् इन्क्लूसिव्, अन्यतत्त्वानि सर्वाणि आल् एक्स्क्लूसिव्। संस्कृतवाङ्मये यत् तत्त्वमस्ति आल् इन्क्लूसिव्, अवगतवन्तः? तदर्थं विश्वकल्याणं भवति। केवलं कारणद्वयमस्ति, संस्कृतिपुनरुत्थानं यदा भवति, यदि केवलं तत्त्वम् उत्तमम् अस्ति चेत् न पर्याप्तं, तत्त्वस्य पृष्ठतः शक्तिः आवश्यकी। यदा सांस्कृतिकपुनरुत्थानं भवति सर्वेषां स्वाभिमाननिर्माणं यदा भवति, सेल्फ् एस्टीम् अपि च सङ्घटनं भवति समाजस्य, हिन्दुसमाजस्य यदा सङ्घटनं भवति शक्तिनिर्माणं भवति तदा तत्त्वस्य प्रचारः भवति। सो तत्त्वं तादृशं तत्त्वम् एतद् एकं सद्विप्राः बहुधा वदन्ति, एकः भगवान् मार्गः भिन्नाः आनोभद्राः यन्तु क्रतवो विश्वतः लेस् नोबल् थाट्स् कम् फ्रम् आल् सैड्स्, वसुधैव कुटुम्बकं, वर्ल्ड् इस् वन् फ्यामिलि, स्वदेशो भुवनत्रयं, त्रीणि भुवनानि मम स्वदेशः, एतादृश वैश्विकविचारः संस्कृते एव अस्ति। अपि च संस्कृतिः इत्युक्ते अस्माकं संस्कृतिः इत्युक्ते केवलं पूजापाठः न, अस्माकं संस्कृतिः इत्युक्ते अर्थचिन्तनमस्ति, अर्थचिन्तनमस्ति, धर्म अर्थ काममोक्ष विज्ञानादिविषयास्सन्ति, जीवनस्य सर्वक्षेत्रेषु आल् वाक्स् आफ् लैफ् सम्बन्धे संस्कृतिः चिन्तनम् अस्ति, पर्यावरणविषये चिन्तनमस्ति, सर्वविषयेषु चिन्तनमस्ति। परन्तु इदानीं संस्कृतभाषां न जानाति इति कारणतः अस्माकं तद्विषये इग्नोरेन्स् अस्ति। इदानीम् उदाहरणार्थं भगवद्गीता एकं ग्रन्थं स्वीकरोतु, भगवद्गीता इत्युक्ते एकं मेनेज्मेण्ट् तत्र पुस्तकं तत् इदानीं मम समीपे एकं पुस्तकमस्ति, दोस् आर् इण्ट्रेस्टेड् दे केन् सी, तत्र विचारवैभवम् इति एकं पुस्तकमस्ति, भगवद्गीता मध्ये मेनेज्मेण्ट् विषयाः किं किम् अस्ति इति संक्षेपेण एकः आर्टिकल् अस्ति। तथैव अर्थशास्त्रविषये, अर्थशास्त्र विषये अद्यपर्यन्तं भारतीय अर्थशास्त्रस्य अध्ययनं न अभवत्. यु नो दट् वन् नेम् आफ् अर्थशास्त्रज्ञ भारतीय सेकेण्ड् नाम वदतु चाणक्यकौटिल्य वर्तते अन्य अन्यत् नाम वदतु यु नो ओन्लि वन् नेम् चाणक्य इस् द 18th एकानमिस्ट् आफ् भारत. चाणक्यतः पूर्वं 17 एकानमिस्ट्स् आसन्. तद्विषये ऋग्वेदतः चाणक्यपर्यन्तम् अर्थशास्त्र भिन्नभिन्न अर्थशास्त्रपरम्परा अस्ति. अद्य तद्विषये अध्ययनं न भवति. बहवः विषयाः सन्ति तत्र. इदानीं तत्र गतमासे देहल्यां इण्डिया इण्टर्नेशनल् सेण्टर् मध्ये एकः भाषणकार्यक्रमः आसीत्, वेदिक् माडेल् फार् एकनामिक् डेवलप्मेण्ट्. इदानीम् एतादृशाः नूतनविषयाः आगच्छन्ति. बहु उत्तमरूपेण तत्र प्रेसेण्टेशन् आसीत्. सद्यः एव वयं पुस्तक संस्कृतभारती गोयिङ्ग् टु पब्लिश् दट् बुक् वेदिक् माडेल् फार् एकनामिक् डेवलप्मेण्ट्. भिन्नभिन्नविषयाः भवन्ति. संस्कृतिः इत्युक्ते केवलं पूजापाठः, तत्र जीवनस्य सर्वक्षेत्रे चिन्तनम् अस्ति. यदा तस्य रिवैवल् भवति जीवनस्य सर्वक्षेत्रेषु पुनः रिवैवल् भवति, रीकन्स्ट्रक्षन् भवति, तेन विश्वस्य कल्याणं भवति इति. पालिटिक्स् विषये अस्ति, महाभारते पालिटिक्स् विषये अपि अस्ति, एतदस्ति, अर्थशास्त्रम् अस्ति, विदुरनीतिः, भीष्मनीतिः, बहु अर्थशास्त्रमस्ति तत्र. भवतु, एवं सम्भाषणं केवलं.